देव्यपराधक्षमापनस्तोत्रम् न मन्त्रन्नो यन्त्रन् तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः न जाने मुद्रास्ते तदपि च न जाने विलपनं परै जाने मातस्त्वदनुसरणं क्लेशहरणं विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्त्यत्वात् तव चरणयोर्याच्युतेरभूत् तदेतत्क्षन्तव्यै जननि सकलोद्धारिणि शिवे कुपुत्रो जायेतत् क्वचिदपि कुमाता न भवति पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः परन्तेषां मध्ये विरलतरलोहन् तव सुतः मदीयो यन्त्यागस् समुचितमिदन्नो तव शिवे कुपुत्रो जायेत क्वचिद पिकुमाता न भवति जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया तथापि त्वं स्नेहं मयि निरुपमं यत् प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति परित्यक्ता देवा विविधविधसेवा कुलतया मया पञ्चाशीते रधिकमपनीते तु वयसि इदानी चेन्मातस्तव यदि कृपानापि भविता निरालम्बो लम्बो दरजननिकं यामि शरणम् श्वपाको जल्पाको भवति मधुपाको पमगिरा निरातंको रंको विहरति चिरंको टिकनकैः तवापर्णे कर्णे विशति मनुवर्णे फलमिदै जनक को जानीते जननि जपनीयै जपविधौ चिताभस्मालेपो गरलमशनन्दे पटधरो जटाधारी कंठे भुजगपतिहारी पशुपतिः कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणि ग्रहण परिपाटी फलमिदं न मोक्षस्याकांक्षा भव विभव वाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वां संयाचे जननि जननं यातु मम वै मृडाणि रुद्राणि शिव शिव भवानीति जपतः नाराधितासि विधिना विविधोपचारैः किं रुक्षचिन्तनपरैर्न कृतं वचोभिः श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परन्तवैव आपत्सु मग्नस्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि नैतच्छठत्वं मम भावयेथा क्षुधा तृषार्ता जननीं स्मरन्ति जगदम्ब विचित्रमत्र किम् परिपूर्णकरुणास्ति चेन्मयि अपराधपरम्परा परं न हि माता समुपेक्षते सुतम् मत्समः पातकी नास्ति पापघ्नी त्वत्समा नहि त्वयि ज्ञात्वा महादेवि यथा योग्यं तथा कुरु।